द्वापरयुगस्ते तत्र भक्तैः भक्ताः आसन् ते सर्वे पृष्टवन्तः हे कृष्ण भवत्याः अन्तर्धानानन्तरं वयं सर्वे कुर्मः इति. What will happen after Krishna finishes the avatara and goes back? Whom will we worship and what will we do? When that question was raised, one of the places Sri Krishna told that he will pratyaksha rupena available is in both Srimad Bhagavatam and Srimad Bhagavatam. Srimad Bhagavatakhyoyam pratyaksha Krishna evahi uktirasti. So Bhagavad Gita Grantha, which is there, the Grantha itself is very precious. And Tadartame Uktamasita Gita ya Patha Fartate Etra Pustakamaha Pravartaniya Musti Kevalam Pustakapuya Na Samichina Tatra Pathaha Api Pravartate Bhavati Tatra Pathaha Pravartate Tukaha Yutukasmagam Adhyena Krame Te Dattamasti Enam Mananam Patanam Van Vidyasanam Anantaram Tat Abhasaha Yet Salitvayeva Pataha Iti Padasya Artha Natu Kevalam Tatra Shloka Patana Shlokanam Patasma Prathama Abhiva Prathama Sopanam Bhavati Patanam Kevala Shloka Patanam Yad Bhavati Tat Prathama Sopanam Bhavati Evam Gita Yaha Pustakamra Yatra Patha Pravartate Tatra Tithani Prayagadini Tatravai Sarve Devascha Rishayaha Yoginaha Pannagaschaye Gopa Gopika Vapi Narada Udda Prashadihi Sarve Ye Bhagavasanaha Santir Sarve Sham Prasadaha Anugraha Bhaha. If you look at it, very simple. Tra Sadvatanam Anugraha Pati Tatra Shantihi Vati Iti Vishanasti Yevam Gita Yaha Patha Tatra Ganam Yadikam Karot Abhyahadoti Ashyam Saha Sita Pragnat Bhavati Karmacharat Saha Sarvada Santushta Bhavati. You always be Yevam Santush Sarvatra Sarvada Santushtihi Bhavatyeva Anantaram Tayaha adhyenena tatra tasya paravasudeve parabrahmani tasya chittamate anantara sinandati nandatyeva indrahena devagrahena labhabhitayaha adhyenena bhavati antara trivatirthani prayagadini tirthani kivanti te sarve pavitri kurvanti Tatra deha va manaha va pavitri karoti. Gita yaha adhyeni napi kim bhavati. Tatra ragadvesha viyuktaha. Ashapasha shatair muktaha. Sukhaha vatiha. Utitaha yada janaha bhavanti. Tada chasa kaya pavitri krutaha bhavati. Evam. Even at a transactional level or even at a philosophical level, both if they understand. Gita yaha yatra pathavarte tatra sarvani tirthani ityukte pavitri janaha bhaktaha ye gita yaha enam kurvanti tatra maabhi ukta adhyena kitya yadi kurvanti che tada ye the different meaning of that. It is not that you should have the books, read this one or two shlokas and it becomes the tirthas, cannot be in that literate sense. Has to be understood in a more inherent sense. Pashya maha yevam gita yaha mahatvam drishtva agre gachya maha anubandha chatushtim kamasma bhi drishtamasti tatra karmakandam upasana kandam jnana kandam api asma bhi drishtamasite tatra shloka shat shashti paryantam asma bhi drishtamasti kavaram tatra shloka number 66 patha maha तत् किप्थम लोड न भवति इति न जाने तत्र प्रेजेंटेशन अस्ति एकवारं पश्यामि निमेषद्वयं कृपया यच्छताम्
एतदेव लोड् भवति वा यावत् वयं लोड् कुर्मः तत्र यत् प्रावृत्तिः कृतं सर्वमेकवारं पश्यतु तत्र यत् पूर्वकक्ष्यासु श्लोकाः उक्तास्सन्ति तत्रमेकवारं पश्यतु तावत् यत् फैल् लोड् कुर्मः किञ्चित् तान्त्रिकाः सन्ति तत्र प्रथमभागे यावत् तत्र आत्म अनात्मनः तृतीयाध्याये प्रथमभागे उपदेशे तत्र आत्म अनात्मनः तत्र यत् भेदः प्रकल्पितः तत् सम्यक् प्रतिपादितमस्ति डिफरेन्स् बिट्वीन् आत्मा एण्ड् अनात्मा विच् इस् वेरि वेरि इम्पार्टेण्ट् बिकास् दट् इस् द फस्ट् अगेन् टुवर्ड्स् साधना नित्यानित्यवस्तु विवेकता इट् वास् एक्स्प्लेन्ड् सो दट् वास् क्लियर्लि एन् एक्स्प्लेनेशन् विच् वास् गिवन् फ्रम् एन् एक्स्टर्नल् पर्स्पेक्टिव् slowly shifting the perspective towards Arjuna anantara saha kim vadati swadharma ritya kim kartavyam bhavata pashatu atma anatmanah bhedah asti yadyapi swadharma ritya bhavata kim kartavyam idanim chintayatu iti taduktam asit anantaram swadharma acharanam tatra katham kartavyam iti tatra pratipadite tatra saha karma yogam padayati karmanyeva adhikaraste prati agacchati कर्मण्येवाधिकारस्ते मध्ये तत्र कथम् द लास्ट् पार्ट् आफ् इट् ही टाक्स् अबौट् समाधौ चला बुद्धिः भवितव्या व्यवसायात्मिका बुद्धिः आवश्यकी इत्यपि उक्तमस्ति फ्रम् देर् अर्जुन आस्क् द क्वशन् अस्तु कथम् तावत् तत्र स्थितप्रज्ञेन भवितव्यम् कथम् स्थितप्रज्ञः भवति स्थितदीः किम् प्रभाषेत किमासीत किम् रचेत इत्यादिकम् उक्तमासीत् तदा श्रीकृष्णः अर्जुनम् प्रति स्थितप्रज्ञस्य लक्षणम् तत्र गुण लक्षणं यद्यदस्ति तत्सर्वं सः प्रतिपादयति इदानीं प्रायशः दृश्यते इति मन्ये अत्र किलं तत्र निष्कामकर्म इति वाक्यं तत्र आड् कृतमस्ति अनन्तरं भक्ति यदस्ति तत् भगवद्भक्तिरपि भवेत् गुरुभक्तिरपि भवेत् इति चिन्ता आसीत् तदपि तत्र आड् कृतमस्ति अनन्तरं साक्षात् श्लोक नम्बर् 66 स्वीकुर्मः इदानीं पश्यामः तत्र स्थितप्रज्ञस्य लक्षणं सः वदति तस्मिन् मध्ये जायतो विषयान् सः इत्यादिकं सर्वं श्लोकम् आगच्छति अनन्तरं तावत् मत्परः यः भवति सः तत्र प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानां हानिः भवति प्रसन्नचेतसः आशु बुद्धिः पर्यवतिष्ठते सद्यः झटिति यदस्ति तस्य बुद्धिः प्रतिष्ठिता भवति इत्यादिकं सर्वम् अस्माभिः सम्यक् दृष्टमस्ति कक्ष्यासु इदानीं श्लोक नम्बर् 66 एकवारं तया पश्यामः नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न च भावयतः शान्तिः अशान्तस्य कुतः सुखम् एतदस्मान् पदच्छेदः दृष्टमस्ति यद्यपि इदानीम् एकवारं तत्र अन्वयार्थं पश्यामः अयुक्तस्य इत्युक्ते योगरहितस्य यः अत्र योगरहितः भवति अस्ति शङ्कराचार्यवाक्ये अपि दृष्टमासीत् समाहितानस्य बुद्धिः धीः कीदृधिः
आत्मस्वरूपविबुद्धिः नास्ति न भवति तदा किं भवति अयुक्तस्य भावना भगवद्भावना भगवच्चिन्तना यदस्ति तदपि न भवति एवं भगवच्चिन्तना यदा न भवति तदा शान्तिः न भवति अनन्तरम् अशान्तस्य सुखमपि न भवति
एवमस्माभिः दृष्टमासीत् पदपदार्थपश्यमपि अस्माभिः दृष्टमस्ति इति मन्ये. अयुक्तस्य षष्ट्येकवचनम् बुद्धिः प्रथमैकवचनम् नास्ति न अव्ययम् अस्ति अस् भुवि लट् कर्तरि लट्लकार प्रथमपुरुष एकवचन. अनन्तरम् भावना स्त्रीलिङ्ग प्रथमैकवचनम्. अयुक्तस्य षष्ठी अव्ययम् न अव्ययम्. अभावयत भूसत्तायाम् परम् तत्र अभावयत् तत्र अभावयत् अभावयन् वर्तमानकृदन्त शत्रुप्रत्यय षष्ठी एकवचनम् च अव्यय. शान्तिः इकारान्तस्त्रीलिङ्ग प्रथमैकवचनम् न अशान्तस्य पुल्लिङ्ग षष्ठी एकवचनम्. दुःखम् अकारान्तरूपसंज्ञकवचनम्. कुतः प्रश्नार्थक अव्ययम् तशिल् तत्र तशिल् प्रत्ययस्य योगः तः अस्ति पञ्चम्यर्थे तशिल् अव्ययम् कुतः. एतत् सर्वम् अस्माभिः एकवारम् दृष्टमस्ति केवलम् पुनरावर्तनम् अतः किञ्चित् शीघ्रम् गच्छामि. यस्यादिः नास्ति तस्य आत्मस्वरूपविषया बुद्धिः न भवति प्रथमम् वाक्यम्. तादृशस्य युक्त्य इत्युक्ते असमाधिपुरुषस्य असमाहितान्तःकरणस्य आत्मज्ञान अनभिनिवेशः न भवति. आत्मज्ञान अभिनिवेशरहितस्य शान्तिः मशान्तिः यदस्ति न भवति. अशान्तस्य कथम् दुःखम् स्यात् सर्वम् दृष्टमस्ति नास्ति. सवर्णदीर्घ बुद्धिरयुक्तः विसर्गरेफ चायुक्तः चाभावयतः दीर्घसन्धिः शान्तिरशान्तस्य विसर्गरेफ. न युक्तः अयुक्तः न भावयन् अभावयन् न शान्तः अशान्तः नैतत्पुरुषाः. अयुक्तस्य युक्तः अयुक्तः युज् युजिर् क्तप्रत्ययः भूतकृदन्तः. भावयः भू सत्तायाम् प्लस् णिच् प्लस् शत्रु भाव यतः अस्ति एवम् णिच् योगः अनन्तरम् शत्रुप्रत्ययः कर्तरि अस्ति. एतदस्मि दृष्टमासीत्. 67 स्वीकुर्मः. एतदपि इण्ट्रोडक्षन् कृतमस्ति एकवारम् पूर्णपरिचयम् पश्यामः. इन्द्रियाणाम् हि चरताम् यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञाम् वायुर्नावमिवाम्भसि. एकवारम् पश्यामः. पदच्छेदस्तावत् इन्द्रियाणाम् हि चताम् यत् मनः अनुविधीयते तत् अस्य हरति प्रज्ञाम् वायुः नवम् इव अम्बसि. पदच्छेदः तत्र अन्वयपदपदार्थः पश्यामश्चेत् चरताम् चताम् इत्युक्ते किम्? स्वस्वविषयेषु प्रवर्तमानानाम् स्वस्व सांसारिक विषयेषु प्रवर्तमानानाम् इति स्वीकर्तुं शक्यते. स्वस्व देरोन् मेटीरियलिस्टिक् सांसारिक वर्ल्डी विषयेषु प्रवर्तताम् इन्द्रियाणाम् मह यतु अनुविधीयते दट् इस् आल् दोस् यदा तत्र वेन् the mind the sense organs is totally controlled by the mind who will be the sense and the charioteer when it is totally under the control what happens is there is always a sense of directions and kutra gantavyam katham gantavyam tat sarvam patyeva all these will be there but on the contrary when the sense organs start to drive the mind or the buddhi and then they decide that okay the sense organ decides the sense organ jihits maya etadeva khaditavyam etadeva anubhutavyam neta organ decides maya etadeva drashtavyam maya tra yet deva paraha nasti krishna paraha nasti tat sarvam drashtavyam sense organs decide the mind and the yada tat bhavati tada kim bhavati vayurnava mivambhasi yatha tatra vayuhu ambasi navam tatra chalayati tatha eva bhavati iti savadati param yatra yogyah navikah asti tarakah asti तत्र रामकृष्णादयः ये ये सन्ति तेषाम् तदर्थमेव तारकनाम इत्यादिकम् अस्ति. ये ये तत्र तारकानाम् तत्र वयम् साहाय्यम् स्वीकुर्मः यदा तत्र परिपूर्णशरणं भवति शिष्यस्तेऽहम् शाधिम् त्वाम् प्रपन्नम् इति शरणागतिः आवश्यकी अत्र आवश्यकम् भवति. तदनन्तरम् किम् इति परिपूर्ण अनुग्रहः भवति तेन तत्र वि गेट् द रो वि गेट् द मोटर् वि सा आल् दिस् कम्पेरिसन्स् एण्ड् हौ we can get that sense of direction and also we'll be able to quickly cross the samsara sagara etata asmashtamasite indriyanam nitradinam manah tatra buddhihi samadau achala buddhihi yadasti yate indriyam anusritya patate tadrusha indriyam asya etasya pragnam vahu ambasi navamiva harati apakriti यदा तत्र इन्द्रियाणि तत्र मनः बुद्धिं ड्राइव करोति तदा वायुः नावम् इव अमसि भवति. यदा बुद्धिः मनः सम्यक् इन्द्रियाणि ड्राइव करोति तदा किं भवति, व्हेन द सेंस ऑर्गन्स आर अंडर द कंट्रोल ऑफ द बुद्धि और मनस देन इट गोज इन द राइट डायरेक्शन एंड इट इज नॉट लाइक वायुर नावम इवांबसी. इट विल बी बाय दैट द नाविकः द तरकः इट इज अंडर देयर कंट्रोल एंड नावः नावम यावत् भवति तत् शीघ्रं तटं प्रति गच्छति इत्येव अर्थः. एवं पश्यामः चरत् इदास्ति चरताम इन्द्रियाणां चरताम चरताम इत्युक्ते अस्माभिः उक्तमासीत् स्वस्व विषयेषु सांसारिक विषयेषु प्रवर्तताम चरताम तादृश इन्द्रियाणां चरत् तकान्त नपुंसकलिंग षष्टिबहुवचनम् इन्द्रियाणां षष्टिबहुवचनम् नपुंसकलिंग मनः मनः मनसि मनांसि मनः सकारान्त नपुंसकलिंग प्रथमैकवचनम् दकारान्त सर्वनाम सर्वनाम शब्दः नपुंसकलिंग प्रथमैकवचनम् अनुविधीयते अस्मभिः पूर्वमेव दृष्टमासीत् अनु प्लस वी इति उपसर्ग द्वयपूर्वक डुधांज धातुः धा इत्यपि भवति धारण पोषणयोः धर्म इति शब्दः अस्माभिः एकवारं केनापि पृष्टमासीत् कथं निष्पन्नः इति. एवमेव धारण पोषणयोः धा धातुः महाप्राण धा न तु अल्पप्राण धा धातुव धा धातोः अनु इति प्लस वी उपसर्ग द्वयपूर्वक डुधांज धारण पोषणयोः इति धातोः तत्र कर्मणि अनिट उभयपदी धातुः यद्यपि अत्र तत्र अनुविधीयते आत्मनेपदम् उपयोगः कृतमस्ति. जुहोत्यादिगण्यः एषः धीयते धीयेते धीयन्ते धीयसे धीयेथे धीये धीयध्वे धीये धीमहे धियामहे लट् लकारः अनुविधीयते प्रथमपुरुषे एकवचनम् तत् तद् दकारांत सर्वलिंग सर्वनाम नपुंसक प्रथमेकवचनम् अस्य षष्टि एकवचनम् प्रज्ञां स्त्रीलिंग द्वितीय एकवचनम् वायुः पुल्लिंग प्रथमेकवचनम् अंभसि अंभस् शब्दः सप्तमी नपुंसकलिंग सप्तमी एकवचनम् नावम् नौ शब्दः औकारांत स्त्रीलिंग नौ शब्दः द्वितीय एकवचनम् हरति हृञ्ज हरणे इति धातोः हृञ्ज हरणे धातुः अस्ति तत्र परस्मैपदी लट्लकार प्रथमपुरुष एकवचनम् हरति हृञ् ह्री हरणे भवति परं तत्र लौकिकरीत्या उपयोगः कर्तव्यश्चेत् केवलं हृ भवति. हरति हरतः हरन्ति हरसि हरतः हरथ हरामि हराव हरामः लट् प्रथम परस्मैपदी प्रथमपुरुष एकवचनम् भ्वादिगणीयः भवति ह्रीं धातुः. एवं तत्र पदार्थः पदपचयः कृतमस्ति व्याकरणरीत्यापि. तात्पर्यं तावत् जले प्लवमानानां नौका वायुः यत्र कुत्रापि नयति एवं विषयेषु प्रवृत्तम् एकम् इन्द्रियमपि तस्य प्रज्ञां हरति अतीव प्रसवं हरति मनः प्रसवं हरति इन्द्रियाणि इन्द्रियार्थेभ्यः हरन्ति प्रसवं मनः इत्यपि पूर्वमुक्तमासीत्. तदुपरि पौनःपुन्येन तत्र टु मेक् द पॉइंट मोर एम्प्टिक् अगेन् पौनःपुन्येनापि इदानीं रिपीट् कृतमस्ति. एतावत्पर्यं ज्ञातं किल संज्ञातं किल श्लोकं तावत् सरलं वर्तते. अगेन् इट् इस् अ श्लोक अगेन् आल् साधकास् एक्स्पेन्स् इट् अगेन् अण्ड् अगेन् समटैम्स् द इन्द्रियाणि आर् अण्डर् द कण्ट्रोल् आफ् द मैण्ड् आर् बुद्धि समटैम्स् इट् जस्ट् टेक्स् ओवर् द इन्द्रियाणि इमीडियट्लि टेक्स् ओवर् द हार्सस् समटैम्स् टेक् ओवर् अण्ड् दे स्टार्ट् ड्रैविङ्ग् इट् सम्वेर् दे स्टार्ट् कीप् पुलिङ्ग् इट् सम्वेर् but at the again tatra again what is the answer for that there are two answers to it. What should we do if a sadhaka asks what should I do at that time when the heart are forcibly pulling away vayuhu ida prasavam harati tada kim kartavyam two things eva kartavyam prathamam tavat abhyasena tu kaunteya vairagyena grihyate only by practice samyak practice kurmaschet tada tatra kar asmakam control madhye agacchati no chet tatastatah gacchati evam abhyasena tu kaunteya abhyasah karaniyah ko abhyasah karaniyah satsange vartamana abhyasah karaniyah tada satsangah mat parah yada bhavanti tada tatra ब्रह्मणि चित्रमते यदा ब्रह्मणि चित्तं रमते नन्दति नन्दति नन्दत्येव प्रसादः एव भवति प्रसादे सर्वदुःखानां बुद्धिः सर्वदुःखानां हानिः भवति अनन्तरं बुद्धिः पर्यवतिष्ठते परब्रह्मणि स्थिरा भवति సో దట్ ద సొల్యూషన్ టు దట్ ఆల్సో. యన్ మనః యత్ మనః అనునాసిక సంధి యరోనునాసికో నునాసికో వా మనోనువిధీయతే నః అనువిధీయతే ప్రథమం తావత్ విసర్గ సకార దెన్ రేఫ దెన్ ఉకార గుణ పూర్వరూప. దట్ ఇస్ ద ఆర్డర్ ఇన్ విచ్ ఇట్ హ్యాపన్స్. విసర్గ ప్రథమం భవతి సషజోరు దెన్ రేఫ దెన్ ఉకార ఉత్వం భవతి అనంతరం ఉ గుణ భవతి గుణ భవతి వెన్ ద గుణ ఇస్ దేర్ ఇట్ బికమ్ మనో ప్లస్ అనువిధితే ఇన్స్టెడ్ ఆఫ్ అ అవగ్రహ చిహ్నం భవతి పూర్వరూప సంధి. Most of us know this going in front. Yadi samdeha vartate yadi tatra kinchit mandena gantavyam chete tatra kripaya uchyatam tat asmabhi anusaryate tat asya ashvasandhi tadasya vayuhu navam vayur navam risargarefa anantram ivambasi dirgha charatam chara plus shatru pratyaya vartaman kridanta charatam చరణ్ భవతి ఏషాం చరతాం షష్టి భవతి ఏవం కృదంత పరిచయ కృత అస్తి ఏతరేవ కేవలం ఏకవారం తాట్ మధ్య దత్తమస్తి ఆత్మత తత్ర యది వయం కఠోపనిషది పశ్యామశ్చేదపి తదేవ ఉచ్యతే ఆత్మానం రథినం విద్ధి తత్ర ఆత్మ కిం భవతి రథినం ప్యాసెంజర్ భవతి సహ కేవలం అంతః ఉపవిశతి దేహ యదస్తి తత్ పూర్ణం చెట్ భవతి. Buddhi and Manas which are there, Buddhi is the charioteer which and Manas is the reins which actually control the senses. Buddhi Ritya Samadhu Achala Buddhi Stapayitva Asmabhi Kim Kartavyam Manas to the rein called Manas we have to control the five horses. Panchendani Yat Santi Tatvam Asmabhi control Kartavyam. Same example given in Srimad Bhagavat also. The same example is also given in Kathopanishad. The same example is again given in Srimad Bhagavad Gita. In Kathopanishad, if we see 133, Atmanam Rathinam Vidhi, Shariram Rathamevacha, Buddhinam Sarathim Vidhi, Manav Pragrahamevacha, Indriyani Hayanyahu, Vishayam Steshu Gocharane, Iti Tatra Uktamasti. Anantram, same thing again in Srimad Bhagavatam. In the seventh chapter, seventh kanda, saptama adhyaye yadasti tatra ekavaram tatra saptama skandhe tatra panchadasha sarge tatra 41st shloka yadasti. Seventh skandha in the 15th chapter, the 41st shloka, ahuhu shariram ratham indriyani hayane అభీషుణం మన ఇంద్రియేషాం వర్తమాని మాత్ర దిశణాం చ సూతం సత్వం బృహత్ బంధురం ఈశ సృష్టం ఇత్యాదికం తత్ర సర్వం ఉక్తమస్తి. మాభిః ఏకవారం ద్రష్టుమితే ద సేమ్ కాన్సెప్ట్స్ ఎక్స్ప్లెయిన్డ్ ఇన్ ఆల్ ద త్రీ ఉపనిషద్ మధ్యే శ్రీమద్ భాగ మధ్యే శ్రీమద్ భగవద్గీతాయాం ఇన్ ఆల్ ద త్రీ ఇట్ ఇస్ బీయింగ్ రెఫర్డ్ టు. So when we have this chart with us, we know what should control what. The horses start controlling the charioteer, poor Atma will never go anywhere where it has to go. And the chariot, what will happen? Finally, it will go and hit against someone. Deha again will become Nasha. Buddhi and Manas, if the exact Krishna who has to take control of it, the same picture as we have taken. Krishna should also actually take the control of Buddhi and Manas. And when Paravasudeva is controlling it, and then it is in the order, the Indriyani will very slowly, when safely, take both the chariot and the Atma towards the goal and take him to the destination. Yevam asmabhi drishtam asti. Agre gachhamaha ekavaram. Any doubts in this shloka? No chete, we will quickly go to shloka number 6. Pashyamaha. తస్మాద్యస్య మహాబాహో నిగృహీతాని సర్వశః ఇంద్రియాణీంద్రియార్థేభ్యః తస్య ప్రజ్ఞా ప్రతిష్ఠితా. పూర్వకక్షాపి అస్మాభిః ఇంట్రొడక్షన్ కృతమస్తి ఏత శ్లోకయ. తస్మాత్ యస్య మహాబాహో నిగృహీతాని సర్వశః తత్ర ఉచ్చారణ సమయే నిగృహీతాని ఇతి నా వక్తవ్యం. నిగృహీతాని సర్వశః ఇంద్రియాణి ఇంద్రియార్థేభ్యః ప్రజ్ఞా ప్రతిష్ఠితా భవతి. పదపదార్థం పదపరిచయం పశ్యామః. తస్ హే మహాబాహో, హే మహాబాహో, ఓ హే అర్జున. తత్ర అగైన్ వి హావ్ సీన్ హౌ కృష్ణ యూజెస్ సమ్ ఆఫ్ ద మోస్ట్ రైట్ సంబోధన వర్డ్స్ to call Arjuna at the right times. When he has to be more affectionate, Partha, Kaunteya. When he has to awaken him a little bit from his own Swadharma and other kind of situations. And when he has to impart him Swadharma knowledge, Karma Yoga, or make him towards action, tada he uses powerful words. Hey Parantapa, Hey Mahabaho, Hey Gudakesha. So all these are activity based words. Wherein Mahabaho, so you are mighty armed. Again Mahabaho is not only armed. Mahabaho ityukte Mahasamarthyavan, Mahajnanin, Mahashilavan, Mahasamarthyavan ityeva svikatavyam. So when you are again a radhaka who can easily come to the state of mind and be your swadharma, but then you are again, just because of some false notions or pseudo vairagya, you are escaping away from this. So, hey Mahabaho. So, at each of the places we have seen the right sambodhana shabda being used. Hey Mahabaho, tasmat, tasmat, karanat, yasya purusha indriyani, indriyarthebhyah sarvashah. Sarvashah is from all directions, from all places, from all sources, all locations, in all situations, sarvatra, sarvatha, sarvada. We have to take that in the most holistic way possible. Sarvashah nigrihitani yantritani santi tasya purushasya prajna pratishtita bhavati. Padaparichayam padapadartham pashyamaha tatra he mahabaho he arjuna yasmat indriyanam pravritto doshah upapaditah tasmat tasya yatehe indriyani indriyarthebhyah, indriyarthebhyah shabdadibhyah, shabdasparsha ruparasa gandhadibhyah sarvashah sarvaprakaraihi manasa adibhedaihi. That is what Shankar gives. Sarvashah sarvaprakaraihi manasadibhedaihi nigrihitani santi tasyaiva purushasya sadakasya sitapragnasya sadakottamasya sitapragnasya prajna pratishtita bhavati. Yaha ayam laukikaha vaidikascha vyavaharaha avidyakaryatvatu saha utpanna viveka jnanasya sitapragnasya avidya nivrittau nivartate. Vidya virodhat avidyayaha cha vrittihi iti etam artham sputikurvana agrevadati. So if we see again, he clearly explains yasya indriyani indriyarthebhyah sarvashah grihitani. So where is it taking to? It is again taking us to kurmonganiva sarvashah prati yada kaman sarvan parthamanogatan. Same concept again explained, only to give full emphasis to concept. Hey Arjuna, hey Mahabaho, tasmat therefore yasya whose indriyani sense organs indriyarthebhyah from the sense objects rupadi visheyebhyah sadi visheyebhyah shabdasparsha ruparasa ganda indriyani Chakshuhu, Shrotra, Jihva, Ityadi, Indriyani. Sarvashah, Sarvat, Sarvada, Sarvatra, Sarvaritya, Sarvakaranena, Nigrihitani, Niyantritani, Samahitani, Tasya, Tadrshasya, Purushasya, Sitapragnasya, Tadrsha, Sadhakottamasya, Tadrsha, Vipaschitaha, Tadrsha, Panditasya, Pandita, Panda Atma Vishaya Buddhihi Panditasya Buddhihi Pratishtita Ativa Sthira Paryavarishtate Buddhihi Pratishtita Bhavati. So a few synonymous words which we have already used, we have just tried to put that and understand this sloka better. Pashyamahan, He Mahabaho, Karanta Fullinga Sambodhan Pratamekavacharam, Tamat Tatshadaha Sarvanama Dakaranta Napumsakalinga Panchamekavacharam, Yasya Yat Shashtekavacharam, Indriyani Napumsakalinga Pratama Bhochanam, Indriyarthebhya Panchami Bhochanam, Sarvashaha Avyayam, Nigrihitani, Akaranta Napumsakalinga Pratama Bhochanam, Tasya Tad Shashti Vakti Ekavachanam, Prajna Akaranta Strilinga, Prajna Akaranta Strilinga Prathama Ekavachanam, Pratishtita, again Pratishtita Atra Pratishtita Bhavati Ityabhi Svikartum Shakte Strilinga Iti, No Chete Pratishtita Bhavati Strilinga Prathama Ekavachanam Ityeva Svikartavyam Param Yadyapi Ati Sthadatuhu Pra Stha Plus Taprateha Strilinga Rupaha Pratishtita Bhavati. Tatparyam, He Mahabaho, He Arjuna, Tasmat Tvam Janihi Yat Yasya Indriyani Ruparasadibhyah Indriyarthebhyah Sarvashah Sarvaritya Nigrihitani Samahitani Vanti Tasyi Prajna Pratishtita Bhavati. एवं तत्र एवं आचार्येणापि उक्तमासीत् तत्र उपन्यासे द सेन्स् आर्गन्स् कण्ट्रोल् यदस्ति अतीव मुख्यं भवति. शम दम श्रद्धा उपति तितिक्षा समाधि शमादि षट्क सम्पत्ति विच इस् अगेन् द अगेन् वन् आफ् द इम्पार्ट् आफ् द साधना तुष्टयम् विच् वि स्पोक् अबौट् वि सा इन् अवर् चार्ट् साधना चार्ट्. सो इन् दट् दीस् आर् द बेसिक् रिक्वैर्मेण्ट्स् अगेन् फार् अ चित्तप्रज्ञा सो दट् तस्य बुद्धिः पर्यवतिष्ठ इट् केन् बि फर्म्ली एस्टाब्लिश्ड् एण्ड् हौ डु वि गेट् दिस् केवलं गुरुकृपया सत्सङ्गत्या एव लभ्यते एतत् सन्धि. तस्मात् यस्य जष्ट्व जशोने इन्द्रियाणि इन्द्रियार्थेभ्यः इन्द्रियाणीन्द्रियार्थेभ्यः दीर्घसि इन्द्रियार्थेभ्यस्तस्य विसर्गसकारादेश युक्तस्तस्य युक्तो यया युक्तो य युक्तः सकार रेफ उकार गुण तावदेव भवति तावत्पर्यन्तं भवति युक्तो यय ओकः भवति. गृहीतानि नि उपसर्गपूर्वक ग्रहधातुः क्तप्रत्ययः भूतकृदन्त नपुंसकलिङ्गा फार्म्स् निगृहीतं निगृहीते निगृहीतानि भवन्ति इन्द्रियाणि बिकास् द कनेक्टेड् वर्ड्स् यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषणस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेष्यस्यापि एवं भवति. व्याकरणभागोऽपिष्टमस्ति. अग्रे गच्छामः. श्लोका नम्बर् 69 द्रष्टुं शक्यते. एकवारं पश्यामः 68 मध्ये कोऽपि सन्देशो वर्तते वा पश्यतु. 69 एक्सलेण्ट् श्लोका अगेन् आफ्ट् रिपीटेड् अगेन् केन् बि इन्टर्प्रेटेड् एण्ड् अण्डर्स्टूड् इन् वेरियस् लेवल्स् अट् अ ट्रान्साक्षन् लेवल् अट् अ फिलोसाफिकल् लेवल् सोशियल् लेवल् स्पिरिचुवल् लेवल् वि केन् अण्डर्स्टाण्ड् दिस् श्लोका. एकवारं पश्यामः. यानिशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सानिशा पश्यतो मुने. श्लोकं द्विवारं पठन्तु अनन्तरं पदच्छेदं पश्यन्तु पदपरिचयं पश्यतु तत्र कर्तृकर्मक्रियान्वेषणं कृत्वा वाक्यम् अन्वयवाक्यं कृपया वदन्तु. सर्वभूतानां यानिशा तस्यां संयमी जागर्ति भवति. समीचीनम्. दट् सेम् संयमी अ डिफरेण्ट् वर्ड् हेस् बीन् यूस्ड् फार् हिम् इन् द सेकेण्ड् पादा दिस् हाफ् यस्यां भूतानि जागर्ति पश्यतः मुनेः सा निशा भवति. समीचीनम्. पश्यतः मुनेः एण्ड् संयमी टू वेरी इम्पार्टेण्ट् वर्ड्स् अगेन् विधेयात्मा वि हव् सीन् द वर्ड् विधेयात्मा वि हव् सीन् द वर्ड् स्थितप्रज्ञः स्थितप्रज्ञः स्थितधीः मुनिः यति वि हव् सीन् लाट् आफ् कनेक्टेटिङ्ग् वर्ड्स् वेरी सिमिलर्ली यूस्ड् वर्ड्स् एण्ड् स्थितबुद्धिः आल्सो वि हव् सीन् स्थिरा बुद्धिः सेम् आल् दीस् पीपल् रेफर् टु द सेम् द कर्तृपद इस् रेफरिङ्ग् टु हिम् सञ् यः भवति सः एव अत्र कर्तृपदम्. संयमी किं करोति सर्वभूतानां कृते या निशा भवति तस्यां एषः जागर्ति भवति. वेरि वेरि सिम्प्लिस्टिकलि टु पुट् सर्वभूतानि किं कुर्वन्ति तत्र बालस्तावत् क्रीडासक्तः तरु तावत् तरुणीसक्तः वृद्धस्तावत् चिन्तासक्तः. एवमस्ति चेत् तत्र क्रीडा वा तरुणी वा चिन्ता वा एतस्मिन् मध्ये तत्र यः तत्र संयमी अस्ति चित्तप्रज्ञा रीत्या यः अस्ति सः एतन्मध्ये निशा पश्यति. सः तत्र तेषु विषयेषु सः निद्रां करोति इत्युक्ते तेषु विषयेषु सः अन्धः भवति. हि इस् नाट् अवेर् हि इस् ओपन् हि इस् ब्लैण्ड् टु दीस् कैण्ड् आफ् वस्तु. यतः परब्रह्मणि परब्रह्मतु ऑल द अदर्स आर नॉट लुक एट दैट परब्रह्म वस्तु ऑल ऑफ अवर ब्रेन
इट अवे फ्रॉम द परब्रह्मतु वी आर स्लीपिंग towards it and we are our organs and our mind brain body has not been activated or awakened to see the pa tari chete for us parabrahman is nisha is in a ratri state is in a blind spot param sanyami yahati he is awakened towards it already यस्याम भूतानि जागृति तरहि तत्र मटेरियलिस्टिक विषय सुखेषु यस्याम भूत जागृति सन्ति तत्र स मुनिः निशा पश्यति तत्र अनः भवति ही बिकम्स इंड टू ऑब्जेक्ट एवमेव अत्र यदि तत्र इफ यू हैव टू गिव अ सिमिलर इंसिडेंट टू दृष्टांतम कुर्मश्चेत व्हेन सदाशिव ब्रह्मेन्द्र टोल्ड बाय हिज गुरु that he Sadashiva Brahmendra is a great scholar and he keeps attacking all the vidwans who come to see his guru and he sits at the doorstep and he challenges everybody they defend the challenge and they go away once the guru asks Sadashiva Brahmendra calls him and asks him can't you just keep quiet without even arguing people he just tells him and from that day Sadashiva Brahmendra for janma he takes nam only for doing rachana about kritis or parabrahma vishaya charchartham speaks but does not speak in any other thing he takes that maunam and when he takes maunam while he is in the sadhaka marga at sometimes he becomes little bit unmattah bhutva sahitastata hancharati tada ekavaram tatra guru chanyan shishyan prati kimartham tatra sadashivah nagatah kutra asti tatra eka masa paryantam mayat tam na drishtam I have not seen him for days together where is he then people start telling that he is running as he's become unmattah he is a bad person and he is running here and there don't worry about him guru leave it to him that is what he says leave him aside we will just concentrate on our studies the guru just closes eyes for a minute and tears starts flowing out of his eyes tada shishyah prachanti kim abhavat he guru kim abhutiti tada guru vadati तादृशमत्तावस् मह्यंकृते नागतम् इति तत्र सह रोदिति दट मैडनेस विच ही हैज गॉट आई डिड नॉट गेट आई एम नॉट गेटिंग दट मैडनेस दट ही स्टार्ट्स क्राइंग एवं तत्र या निशभवति तस्याम संयमी जागर्ति इन द ऑर्डिनरी स्टेट ऑफ अफेयर्स इफ पीपल थिंक दट इज मैडनेस बट दट इज द अवस्था विच एवरीबडी हैज टू अटेन एंड द मैडनेस वॉट वी आर रनिंग अराउंड इन द तत्र प्रतिनित्यं धावनम यदस्ति आशानाम मनुष्याणाम काचिद आश्चर्य श्रृंखला यया बद्धा प्रदावंती आशा नाम श्रृंखलया बद्धा वयम सर्वे नित्यम तावत धावंती अनुधावती प्रधावंती एव कि वयम एव उन्मत्ता न तो ब्रह्मेन्द्रादय नोन्मत्ता इति वक्तुं शक्यते एवमेव दट इज द डिफरेंस बिटवीन या निशा सर्वभूतानां तस्यां संयमी जागर्ति भवति तत्परं पश्यतो मुनेः यस्म भूतानि जागर्ति सानिशा एव भवति पश्यामः तच्छेदः पश्यामः या निशा टू द ज्ञानी हिज इंट्यूशन हिज कॉन्सेप्ट्स हिज परसेप्ट्स आर ऑल फिल्ड इन विद डिविनिटी समीचीनम् तस्य केवल तत्र डिविनिटी एव एका एव भवति अन्यत् किमपि नास्ति एव when there is nothing else exists itself around him apart from divinity he does not see it he is totally blind to it he is totally unaware of it evam bhavati it is as if it the divinity is the only opaque object beyond it he is not able to see anything that is the state of mind when we saw that also vishaya vinivartante asavarjam rasopyasya the natural state of affairs of prajna that he does not his mind even differentiate between what is sukha and what is only then he has to react to the sukha dukha evame bhavati samyagukmasti samyak ativa samyaguktamasti it is always filled with divinity पदच्छेदः या निशा सर्वभूतानां तस्यां जागर्ति संयमी स्यां जागर्ति भूतानि सा निशा श्यतः मुनेः पश्यामः पदपरिचयं पदपदार्थं पश्यामः एकं सर्वभूतानां समस्त प्राणिनां कृते या निशा रात्रिः अप्रवृत्ति भूमिः अतीव परफेक्ट वर्ड्स हैव बीन यूज्ड अप्रवृत्ति भूमिः तस्यां संयमी किमुक्ति जागर्ति जागरूकः भवति of all the beings what
is told to be knight. In that, the self-controlled and sitaprajna yah bhavati, he is awake towards that parabrahma vastu. He is a realized person towards that. Anantaram bhutani yasyam atra yasyam yasyam vishayarashau materialistic samsara sagare jagrati sa pashyataha munehe. Pashyataha munehe basha is a visheshana for munehe, ye bodhan shakti vakti vicharavataha sanyaminaha pashyataha munehe. इत्युक्ते रियलाइज्ड स्थितप्रज्ञः यः भवति तस्य सा निशा भवति अप्रवृत्ति भूमिः भवति एवं रात्रिः इत्युक्ते सर्वपदार्थानां अविवेककरी तमस्वभावत्वात् सर्वपदार्थानां अविवेककरी या भवति सा एव रात्रिः इति शाङ्कः तत्र शाङ्करे किमुक्तमस्ति रात्रिः सर्वपदार्थानाम् अविवेककरी तमस्वभावत्वात् तमस्वभावः यः अस्ति तमस्वभावः अस्ति चेत् तादृश तमस्वभावे संयमी तत्र जागरूकः न भवति एवम् इन्द्रियः योगी यः कोऽपि वर्तते सः Again, very well commented and detailed by Shankara. We will get to the Shankara commentaries and also their annotations in the coming class. But again, we'll just finish the Padaparichayam. Sarvabhutanam Shashti Bahuvachanam Yas Trilinga Prathamekavachanam Nisha Prathamekavachanam Tasyam Saptami Ekavachanam Sami Napumsakalinga Prathamekavachanam Jagarti Jagr Dhatoho Tatra Latlakara Prathamapurusha Ekavachanam Jagarti Ityevasti पश्यामः जागृति अस्माभिः चिन्तनं जागृति जाग्र निद्राक्षये इति धातु दत्तमस्ति जाग्र निद्राक्षये परस्मैपदी अदादिगणीयः जागृति अग्रतः जागृति जागर्षि जागृतः जागृतः जागर्मि जागृवः जाग्मः विशेषधातुः अदादिगणीयः सिन्स इट इज एन अदादिगण इट कम्स लिटिल बिट डिफरेंटली परम अगेन इट इज प्रथम पुरुष एकवचनम लट्लकार जाग्र निद्राक्षये निद्राक्षये जागरणम निद्राक्षये इत्युक्ते किम अंधकार नाशे इते द तम नाशे निद्रा इटसेल्फ तम सो अगेन द परफेक्ट क्रियापदा हैज आल्सो बीन यूज्ड हियर धातु हैज बीन भूतानि नपुंसकलिंग प्रथमा बहुवचनम यस्याम सप्तमी एकवचनम जागृति अगाग्रति इज भूतान जागृति हियर इट इज लकार प्रथम पुरुष वचनम जागृति इज एकवचनम इट इज बहुवचनम रातिदत्तः ददति सिमिलरली सा स्त्रीलिंग प्रथम एकवचनम पश्यतः षष्टिकवचनम मुनेः षष्टिकवचनम स्त्रीलिंग प्रथम एकवचनम तात्पर्यम् यस्मिन् सर्वे प्राणिनः न प्रवर्तन्ते तादृशी परब्रह्मणि परवासुदेवे योगी सर्वदा प्रवृत्तिशीलः भवति यस्मिन् पुनः सर्वे पुनः प्रवर्तन्ते संसार विषयेषु सविषय प्रपञ्चे प्रवर्तन्ते विचारवतः योगिनः प्रवृत्तिः तस्याम् न भवति सिंपल ओके पश्यतः मुनेः विसर्ग सकारदेव उकार गुणदयः सर्वभूतानां सर्वभू भूतानां भूतः भूतः भूप्लस्क्त भूतः भूतानां षष्ट्येकवचनं सर्व इज द प्रिफिक्स एडेड तेषां सर्वभूतानां पश्यतः दृशिर प्रेक्षण धातुः शत्रुप्रतः पश्यन् पश्यन् शृण्वन् एवं भवति पश्यन् शत्रुप्रतः तस्य पश्यतः षष्टि संयमी संयम अस्य अस्ति इति मतु प्रत्ययः तत् अस्य अस्ति इत्यर्थे मतु प्रत्ययः भवति अत्र संयम प्लस इनि प्रत्ययः इनि मतुवर्ते इनि प्रत्ययः भवति दण्डः अस्य अस्ति इति दण्डी एवं संयमः अस्य अस्ति इति संयमी भवति संयमः अस्य अस्मिन् वा अस्ति संयमी तद्दितान्तः भवति एवमेव अस्माभिः दृष्टमस्ति आगामिकक्षायां 70th श्लोक स्वीकुर्मः तावत्पर्यन्तम् यत् यत् अस्माभिः चर्चितमस्मि श्लोकाः तत्सर्वं पौपुण्येन धारणं कुर्मः नूतन अर्थमनमस्ति चेत् न्यू एक्सपीरियन्सेस् न्यू इन्टर्प्रिटेशन्स् न्यू कनोटेशन्स् प्लीज डू शेयर विद् अस् सर्वेषां कृते तत्र शेयर कर्तुं शक्यते एज़ वी अण्डर्स्टाण्ड् अगेन् इट् इस् अ मोर् आफ् अ डिस्कशन् क्लास् एण्ड् प्लीज फील फ्री टु गिव् योर् पॉइंट्स् एण्ड् पर्स्पेक्टिव्स् एकवारं पश्यामः या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिम